उच्यते
अति यज्ञकरं होत्रा देहेऽस्मिन् मधुसूदना
प्रयाण काले च कथं ज्ञेयोऽसि नियतात्मभिः
भगवानुवाच अचलं ब्रह्म परमं स्वभावो जातमुच्यते
भूतभावो भवतः विसर्गकर्म संहितः
अतिभूतं क्षयो भावः पुरुषश्चापि दैवतम्
अतियज्ञोऽहमेव
देहे देहभृतं मरा
अन्तकाले च मामेव स्मरन् मुक्त्वा कले परम्
यत्र याति समं भावं याति नास्त्यत्र संशयः
गम्यं वापि स्मरन् भावं च जज्ञन्ते कले परम्
तं तमेव इति तं तेया सदा तद्भावभाव्यः
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च
मय्यत्कमनो बुद्धिः मामेव शस्य संशयः
अभ्यासयोगयुक्तेन चेतसा नान्यकामिना
परमं पुरुषं देव्यं याति पार्थानुचिन्तयन्
कविं पुराणमनसाधिकारम् अनुहरणीयासनुस्मरेभ्यः
सर्वस्य धातारमचिन्त्य लोपः
आदित्यवर्णं तमसः परस्तात्
प्रयाणकाले मनसा जलेन भक्त्यायुक्तो योगबलेन चैव
मध्ये प्राणमावेश्य सम्यको सतं परं पुरुषमुपैति दिव्यं
यदक्षरं वेदविदो वदन्ति विदन्ति यद्यतयो वेदरागाः
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये
सर्वद्वाराणि संयम्य मनोहृति निरुध्य च
बोध्याभायात्मनः प्राणम् आस्तितो योगधारण देहं स याति परमां
गतिम्
अनन्यतेन सुलभं पार्थानि च युक्तस्य योगिनः
मामपेत्य
प्रवन्ति महात्मानः संसिद्धिं परमां गताः मामपेक्षतु त्वं तेया पुनर्जन्म न विद्यते
चैव पर्यन्तं महर्यद्ब्रह्मणो विदुः
रात्रिं युगसहस्रान्तं ते होरात्रविदो जनाः
अन्यत्रयत्सर्वाः प्रभवन्त्यः रागमे
रात्र्यागमे प्रलीयन्ते तत्रैव व्यक्तसंयते
भूतग्रामस्य एवायं भूता भूत्वा प्रलीयते
रात्र्यागमेव सर्वार्था
तस्मात् भावोऽन्यः व्यक्तो यथा सनातनः
यस्य सर्वेषु भूतेषु नस्य सुरमि नश्यति
अव्यक्तो चरयत्युक्तः समाहो परमां गतिम्
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम
पुरुषस्य परत्पाथ भक्त्यारभ्य स्वनन्यया
यस्यां तस्तानि भूतानि येन सर्वमिदं ततम्
यत्र काले स्वनावृत्तिम् आवृत्तिं चैव योगिनः अग्ने ज्योतिरः शुक्रः
गच्छन्ति ब्रह्म ब्रह्मविदो जनाः
रात्रे सदा कृष्णः तन्माता दक्षिणायनम्
तत्र चान्द्रमसं ज्योतिः योगी प्राप्य निवर्तते
शुक्लकृष्णे गतिहेते जगतश्चते मते
एकया याचना वृत्तिम् अन्यया वर्तते पुनः
नैषे श्रुते पार्थजान योगी मोचति कश्चन
सर्वेषु कालेषु योगयुक्तो भवाशुना
वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यफलं प्रतिष्ठम्
अच्छेति तत् सर्वविदं योगी परं स्थानमुपैच
ॐ तत्सु इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरपरब्रह्मयोगो नाम अष्टमोऽध्यायः मङ्गलं श्रीकुरुक्षेत्रारणक्षोणिविहारिणे ಆಗ